अभिपालयन्तम् लक्ष्मी सहस्रचतसंभ्रमा सेव्यमानम् गोविन्दमादिपुरुषम् तमहं भजामि बेनम् कनन्तमरविन्ददलयताक्षम् अरहवतं समचितां मुदसुन्दरङ्गम् कन्दाल्पकोटिकमनीयविशेषशोभम् गोविन्दमादिपुरुषम् तमहम् गोविन्दादिपुरुषम् तमहं भजामि आलोलचन्द्रकलश वनमालवंशी रत्नाङ्गदम् प्रणयकेलिकलाभिलाषम् श्यामं त्रिभङ्गललितं नियतप्रकाशम् गोविन्दमादिपुरुषम् तमहं भजामि गोविन्दमादिपुरुषम् तमहं भजामि अङ्गानि यच्छ सकलेन्द्रियवृत्तिमन्ति पश्यन्ति पान्ति कलयन्ति चिरं जगन्ति आनन्दचिन्मया षडूर्जलविग्रहस्य गोविन्दमादिपुरुषम् तमहं भजामि अद्वैतमच्युतमनादिमनन्तरूपम् आद्यम् पुराण पुरुषं नवयौवनं च वेदेषु दुर्लभम् अदुर्लभम् आत्मभक्तो गोविन्दमादिपुरुषम् तमहं भजामि गोविन्दमादिपुरुषम् तमहं भजामि पन्थास्तु कोटिशतवत्सरसम्प्रदं यो वायो रतापि मनसो मुनिपुङ्गवानम् सोऽप्यास्ति यत्प्रपदचिह्नि अभिचिन्ततत्त्वे गोविन्दमादिपुरुषम् तमहं भजामि तमाहं भजामि रामादि मूर्तिषु कमनियमेन तिष्ठन् नानावतार करो भुवनेषु किन्तु कृष्णा स्वयं शमबभात् परम पुमान्यो गोविन्दादि पुरुषं तमहं भजामि गोविन्दमादि पुरुषं तमहं भजामि गोविन्दमादि पुरुषं तमहं भजामि कृष्णाया वासुदेवया देवकी नन्दनाय च नन्दगोपकुमाराय गोविन्दाय नमो नमः गोविन्दाय नमो नमः गोविन्दाय नमो नमः Thank you. जय ओम विष्णु पार परमा